दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः काल क्रीडति गच्छत्यायुः तदपि न मुञ्चति आशावाय भज गोविन्दम् भज गोविन्दम् भज गोविन्दम् मूढमते प्राप्ते सन्निहिते मरणे नहि नहि रक्षति दुःक्रूयकरणे देवन्नी पृष्ठे भानु रात्रौ चिबुक समर्पित जानु करतल भिक्षा तरु तद्वासह तदपि न मुञ्चति आशा पाश सक्तः तावन्निज परिवारो रक्तः पश्चाद्धावति जर जर देहे वार्तां पृच्छति जटिलो मुंडी लुंजित केश काशायांबर बहुकृत वेश पश्यन्न पीचन पश्यति लोको युदर निमित्तं बहुकृत शोक मुरारि समर्चाम तस्य यमः किं कुरुते चर्चा अंगं गलितं पलितं दशन विहीनं जातं तुंडं वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम् चिंता मग्ना ततः क्रियते रामाभोग पश्चाद्धन्त शरीरे रोग यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणं चर्पट विरचित कंठ पुण्या पुण्य विवर्जित पंथ नाहं नात्वं नायं लोकः तदपि किमर्थं क्रियते शोकः परिपालनमथवादानम् ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन Thank you.